श्रीगणेशाय नमः। गौरिर्वाच एषो तिचपलो दैत्यान् बाल्येऽपि नाशयत्युः, अग्रे किं कर्म करत्येति न जानि मुनिसत्तम। दैत्यानाविधा दृष्टा साधुदेव ध्रुवः खलः, अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धुमर्हसि। मुनिर्वाच ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे, त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम्। द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं, तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा। विनायकः शिखां पातु परमात्मा परात्परः, अतिसुन्दरकायस्तु मस्तकं सुमुहोत्कटः। ललाटं कश्यपः पातु भ्रुयुगन्तु मुहोदरः, नयने भालचन्द्रस्य गजास्य स्तोष्ठपल्लवौ। जिह्वां पातु गणक्रीडः शुभुकं गिरिजासुतः, वाचं विनायकः पातु दन्तान् रक्षतु विघ्नः। श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः, गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः। स्कन्धौ पातु जयस्कन्ध स्तनौ विघ्नविनाशनः, हृदयं गणनाथस्तु हेरम्बो जठरं महान्। धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः, लिङ्गं गुह्य सदा पातु वक्रतुण्डो महाबलः। गणक्रीडो जानुजङ्घे ऊरु मङ्गलमूर्तिमान्, एकदन्तो महाबुद्धे पादौ गुल्फौ सदावतु। क्षिप्रप्रसादनो बाहु पाणिआशा प्रपूरकः, अङ्गुलिश्च नखान् पातु पद्महस्तौरिनाशनः। सर्वाङ्गानि मयूरेषु विश्वव्यापी सदावतु, अनुक्तमपि यस्थानं धूम्रकेतुः सदावतु। आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु, प्राच्यां रक्षतु बुद्धिश आग्नेयान् सिद्धिदायकः। दक्षिणस्या मुमां पुत्रो नैऋत्यान्तु गणेश्वरः, प्रतीच्यां विघ्नहर्ताव्या वायव्याद्गजकर्णकः। कौम्बेर्यान्निदिवः पाया देशान्यामीशनन्दनः, दिवाव्यादेकदन्तस्तु रात्रौ सन्ध्या सुविघ्नरुत। राक्षसासुरवेताल गृहभूतपिशाचतः, पाशाङ्कुशधरः पातु रजःसत्त्वतमस्मृतिः। ज्ञानं धर्मं च लक्ष्मी च लज्जाङ्कीर्ति तथा कुलं, वपुर्धनं च धान्यं च गृहान्दारा सुतान् सखीन्। सर्वायुधरः पौत्रान् मयूरेशोऽवतात् सदा, कपिलोजादिकं पातु गजाश्वान् विकटोऽवतु। भूर्जपत्रे लिखित्वेद यः कण्ठे धारयेत् सुधी, न भयं जायते तस्य यक्षरक्षपिशाचतः। त्रिसन्ध्ययजपते यस्तु वज्रसारतनुर्भवेत्, यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत्। युद्धकाले पठेद्यस्तु विजयं चाप्नुयात् द्रुतम् मारुणोच्चाटनात् कर्ष स्तम्भमोहनकर्मणि सप्तवारं जपेद्येत दिनानामेकविंशतिं तत्तत्फलमवाप्नोति साधको नात्र संशयः एकविंशतिवारञ्च पठेत्तावद्दिनानि यः कारागृहं गतं सद्यो राज्ञा वध्यं च मोचयेत् राजदर्शनवेलायां पठेद्यतत्त्रिवारतः स राजां संवंश नीत्वा प्रकृतिश्च सभाञ्जयेत् इदं गणेशकवचं कश्यपेन समीरत मुद्गलाय च तेनाथ माण्डव्याय महर्षये मह्यं स प्राह कृपया कवचं सर्वसिद्धिदं न देयं भक्तिहीनाय देयं श्रद्धावते शुभं यस्यानेन कृता रक्षा न बाधास्य भवेत् क्वचित् राक्षसासुरवेताल दैत्यदानवसंभवा इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां गणेशकवचं सम्पूर्णम्।